सर्वेभ्यः नमस्कारः। अद्य सिद्धान्तकौमुद्याः जन्तुपुल्लिङ्गप्रकरणे चतुर्दशः भागः जनवरी मासस्य चतुर्विंशतितमः दिनाङ्कः। येनाक्षरसमां नायमधिगम्य महेश्वर कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। अजन्तपुल्लिङ्गप्रकरणे अकारान्तपुल्लिङ्गशब्दानाम् अन्ते स्मः प्रायेण। अग्रिमः शब्दः भवति द्व्यह्नशब्दः। अकारान्तः पुल्लिङ्गः द्व्यह्नशब्दः। द्व्यह्नशब्दस्य व्युत्पत्तिः कथं भवति इति किञ्चित् पश्यामः। द्वयोः अह्नोः भवः अहन् इति नकारान्तः, अहर् इति शब्दः वस्तुतः, अहन् इति डे इत्यर्थे उपयुज्यते। द्वयोः अह्नोः भवः इत्यर्थे द्विशब्दस्य अहन् इति शब्दस्य च तथितार्थोत्तरपदसमाहारे च इत्यनेन द्विगुसमासः क्रियते। संख्यावाचिनां समासः प्रायेण द्विगुसमासः भवति। सो द्वि अहन् इत्येतेषां द्विगुसमासः। तत्र कालाट्ठञ् इत्यनेन ठञ् इति तद्धितप्रत्ययः भवति। तद्धितार्थे द्विगुसमासः ठञ् इति तद्धितप्रत्ययः। तस्य प्रत्ययस्य द्विगोलुगनपत्ये इत्यनेन लोपश्च भवति। तस्मादिदानीमपि द्वि अहन् इत्यस्ति। अर्थस्तु द्वयोरह्नोः भवः इति। टच् इति समासान्तप्रत्ययः क्रियते। राजाः सखिभ्यश्च टच्, प्रसिद्धमिदं सूत्रम्। इट्स् एक्चुअली वेरी फ्रीक्वेण्ट्लि यूस्ड्, लैक् से वि हाव् राजा विच् इस् अ नकारान्तपुल्लिङ्ग, एट् द एण्ड् आफ् अ समास वि हाव् महाराजः। वाट् वि पुटिङ्ग् इट् नान् टेक्निकलि, इट् मीन्स् द नकारान्त राजन् शब्द बिकम्स् अकारान्त एट् द एण्ड् आफ् अ तत्पुरुष समास, इस् हौ वि डिफैन् इट्. वाट् हेपन्स् इस् आफ्टर् द समास वि हाव् अ प्रत्यय विच् इस् काल्ड् अ समासान्त प्रत्यय, अ प्रत्यय विच् इस् एडेड् द एण्ड् आफ् अ समास. And here that pratyaya is called touch, where here the akara, that is why it becomes akaraanta. So here also we have an akara pratyaya, and once that pratyaya is done, anhonna etebhyaha ityanena ahan ityasya sthane anha iti adeshaha bhavati. Ahan is replaced by anha. Okay. Tasya akarasya lope dvi anha a iko enasi ityanena enadeshe dvyanha iti akaraantam pratipadikam. You don't need to remember the whole of the prakriya, it is just for samskara. If you hear it now and we go into the samasa prakarana or tathita prakarana, these things will seem familiar. Okay. So what we do now is we are starting with an akaranta pratipadika, which is dvyanha. The krittadhita samasa ashtayatyanena asya pratipadika samya asti. Kaha visheshaha asyatyukte rama shabdavadeva rupani. The forms are like rama except in a single form, which is a saptami ekavachana. सप्तमी विभक्तौ एकवचने संख्या विसायपूर्वस्य अह्नस्य अहन् अन्यतरस्यां ङौ इति अग्रिमं सूत्रं। पञ्चपदानि सन्ति। संख्या विसायपूर्वस्य अह्नस्य अहन् अन्यतरस्यां ङौ इति पदच्छेदः। कः अर्थः? संख्याविसायपूर्वस्य अह्नस्य अहन् अन्यतरस्याम् अहु। संख्याविसायपूर्वस्य अह्नस्य, अह्नः इति शब्दस्य अहन् इति आदेशः भवति। इन् द समास वि रीप्लेस्ड् बै द अहन् बै अह्नः। वाट् वि आर् डूयिङ्ग् हियर् इस् ङौ परतः वेन् फालोड् बै ङी प्रत्यय द अह्नः विल् बि रीप्लेस्ड् बै अहन् इफ् इट् इस् प्रिसीडेड् बै संख्या नम्बर् वि which is an upasarga or saya. Etebhyaha etat purvasya anha iti shabdasya ahan iti adeshaha bhavati vikalpena ngi pratyaye pare eva. This applies only when followed by the suffix ngi, which is in the saptami ekavachana. Ngi os supu ityatra ngi iti pratyaye pare anhasya sthane ahan iti adeshaha bhavati. Dvyanha i ityasti dvi iti sankhyavachakam padam. तस्मात् अनेन सूत्रेण अहन् इत्यादेशे द्व्यहन् इ इति भवति। इदानीं किं भवति द्व्यहन् इ इति स्थिते? एनी वालण्टियर्स्, वाट् शुड् हेपन् हियर्? Okay, before that, there's a question by two or three people. Why it is pronounced as Anha while it is written as Ahna. Okay. This is one of the very few cases in Sanskrit where pronunciation differs from what is written. Okay. In Sanskrit, the speciality of the language is that generally we pronounce it as exactly as it is written. But this is one case. Wherever there is a hakara, which is followed by na, ma, and also la and va, the antasthas actually, not all the antasthas, la and va, that varna is pronounced first and then the hakara is formed. For example, the Brahma is also not pronounced as Brahma, though it is written as ha and ma, the pronunciation is always Brahma, where the ma comes first and the hakara is not fully pronounced. We do not stress the hakara and say Brahma. It is Brahma, where it's a sort of special pronunciation. Similarly, when we have hana, ha followed by nakara, there also it is it's hakara followed by any of the anunasikas. Say you have madhyanna or vanhihi. We do not say vahni. It has to be vanhi. Similarly, purvanam, not purvahnam. So whenever hakara is followed by an anunasika akshara or la or va, like alhadaha and prallada, also jivva, in all those cases the speciality is that the letter which is later comes first, is pronounced first, and the hakara is pronounced later. Yeah. So now coming to dvyahan and e, what happens here? Dvihan I iti sthite kim bhavati? Purvatra api drishtam. Yushan I iti sthite kim jatam? Allopaha. Kena sutrena allopaha? Allopoonaha. Any other answers? Allopoonaha iti satyam. Kintu ngau parataha. Vibhasha nishyohu. This is what I'm asking. Ni, shi. Ittyetayohu parayohu. Vikalpena allopaha bhavati. An ityasthi chet. Allopoonaha. Vibhasha nishyohu. Anaha akarasya lopaha bhavati. Bhasamyayam satyam nityam allopaha bhavati. Ni, shi, ityetayohu parayohu, vikalpena allopaha. Allope sati dvyanhi iti rupam. Allopa bhave dvyahani. Ahan adeshe krute allopahana bhavati dvyahani iti rupam. Adeshasya eva bhave. Anhasya ahan anyatarasyam ityuktam. So this adesha itself is vikalpa. So if we do not have the adesha dvyanha I iti sthite, adgunaha ityanena gune dvyanhe iti rupatrayam bhavati. We have three forms in saptami ekavachana: dvyanhi, dvyahani and dvyanhe, right? So similarly, this sutra says sankhya vi sayapurvasya. So if there is a sankhya like dvyahan, we saw the forms. If there is vi is an upasarga. Vigatam ahaha ityarthe pradayo gatadyarthe prathamaya iti pradi samasaha. Vi ahan iti samase ahan ityasya annadeshe vyanha iti akarantam pratipadikam. Tasyapi saptami vibhaktau trini rupani. Vyanhi, vyahani, vyanhe. Saya anhaha sayaha sayanha iti ekadeshi samasaha. Tatrapi saptami vibhaktau sayanhi, sayahani, sayanhe iti rupatrayam. Shesham Ramavati. In all other forms, we have rupas like akaranta pullinga, the general word which is Rama. Only in these three cases, only in saptami ekavachana, if it is preceded, if the anha shabda is preceded by a sankhya or by vi or saya, we have three forms. So, you see that all forms are like Rama. Janha, dvenhau, dvenhaha. Ityadi bhavati saptami ekavachane eva rupatrayam dvanhe iti rama shabdavat ದ್ವ್ಯನ್ಹಿ ದ್ವ್ಯಹನಿ ಇತಿ ಅಹನ್ನಾದೇಶೇ ರೂಪಂ. ಓಕೆ, ಸೊ ದಿಸ್ ಆಕ್ಚುಲಿ ಎಂಡ್ಸ್ ದ ಅಕಾರಾಂತ ಪುಲ್ಲಿಂಗ, ಅದಂತ ಪುಲ್ಲಿಂಗ ಪ್ರಕರಣ ಇನ್ ದ ಸಿದ್ಧಾಂತ ಕೌಮುದಿ. ಸೊ ಇಫ್ ವಿ ನೋ ಆಲ್ ದಿಸ್, ಆಲ್ ಅಕಾರಾಂತ ಶಬ್ದಸ್ ಇನ್ ಸಂಸ್ಕೃತ ಲಿಟ್ರೇಚರ್ ಆರ್ ನೋನ್. ವಸ್ತುತಃ ಸಂಸ್ಕೃತ ಭಾಷಾಯಾಂ ಅಕಾರಾಂತ ಪುಲ್ಲಿಂಗ ಶಬ್ದಾನಾಂ ಸಂಖ್ಯೆ ಅತ್ಯಧಿಕ ವರ್ತತೆ. ತತ್ರಾಪಿ ತೇಷಾಂ ಸರ್ವೇಷಾಂ ರೂಪಾಣಿ ರಾಮಶಬ್ದವದೇವ ಭವಂತಿ. ರಾಮ ಇಸ್ ದ ಗೋಲ್ಡನ್ ಟೆಂಪ್ಲೇಟ್ ಫಾರ್ ಅಕಾರಾಂತ ಪುಲ್ಲಿಂಗಸ್. ಇಫ್ ವಿ ನೋ ರಾಮ ಶಬ್ದ ದೆನ್ 99% ಎಕ್ಸೆಪ್ಟ್ ಸರ್ವನಾಮಸ್ ಆಲ್ ಅದರ್ ಅಕಾರಾಂತ ಶಬ್ದಸ್ ವಿಲ್ ಹ್ಯಾವ್ ಅಟ್ ಲೀಸ್ಟ್ ಒನ್ ಫಾರ್ಮ್ ಲೈಕ್ ರಾಮ. ಅದು ಇಸಿ ವೆದರ್ ಇಟ್ ಇಸ್ ಪಾದ ಆರ್ ದಂತ. ಇವನ್ ದೋ ದೇರ್ ಆರ್ ಫಾರ್ಮ್ಸ್ ವಿತ್ ದ ಆದೇಶ, ದರ್ ಇಸ್ ಆಲ್ಸೋ ಎ ಫಾರ್ಮ್ ವಿಥೌಟ್ ದ ಆದೇಶ. ಬೇಸಿಕಲಿ ಇಫ್ ರಾಮ ಶಬ್ದ ಇಸ್ ನೋನ್ ಆ್ಯಂಡ್ ಇಫ್ ಸರ್ವ ಶಬ್ದ ಇಸ್ ನೋನ್, ಎನಿ ಅದರ್ ಶಬ್ದ ಹ್ಯಾಸ್ ಟು ಬಿ ಲೈಕ್ ಈದರ್ ಆಫ್ ದೀಸ್. ಓಕೆ, ಸೊ ತಥಾಪಿ ಅಕಾರಾಂತ ಪುಲ್ಲಿಂಗೇಶು ಕಿಂ ಕಿಂ ಅಧೀತಂ ಇತಿ ಕಿಂಚಿದಿವ ಪುನರಾವರ್ತಯಾಮಃ. ಆದೌ ರಾಮಶಬ್ದ ಅಕಾರಾಂತ ಪುಲ್ಲಿಂಗ. ಸೊ ಐ ಆಮ್ ಹೋಪಿಂಗ್ ಆಲ್ ಆಫ್ ಯು ಆರ್ ಥ್ರೂ ವಿತ್ ದ ಪ್ರಕ್ರಿಯೆ ಆಫ್ ರಾಮಶಬ್ದ ಬೈ ನೌ. ಅಟ್ ಲೀಸ್ಟ್ ದಟ್ ಇಸ್ ವೆರಿ ಬೇಸಿಕ್. ತದಃ ಸರ್ವಶಬ್ದ ಸರ್ವಾದೀನಿ ಸರ್ವನಾಮಾನಿ ಇತಿ ಸರ್ವನಾಮ ಸಂಜ್ಞಾಯಾಂ ಸತ್ಯಂ. ಸರ್ವಶಬ್ದಸ್ಯ ರಾಮಶಬ್ದಸ್ಯ ಚ ಪಂಚಸು ರೂಪೇಷು ಭೇದ ದೃಶ್ಯತೆ. ಜಸಿ ಜಸ್ ಪ್ರತ್ಯಯೇ ಪರೆ ಜಸಶ್ಶಿ ಇತ್ಯನೇನ ಶ್ಯಾದೇಶೇ ಸರ್ವ ಈ ಸರ್ವೇ ಇತಿ ರೂಪಂ. ಜ್ಞೇ ಪ್ರತ್ಯಯೇ ಸರ್ವನಾಮ್ನಸ್ಮೈ ಇತಿ ಸ್ಮಾಯಾದೇಶೇ ಯಃ ಸರ್ವಸ್ಮೈ. ನಸಿನ್ಯೋಃ ಸ್ಮಾತ್ ಸ್ಮಿನೌ ಆದೇಶ ಸಾಕ್ಷಾತ್ ಪ್ರತ್ಯಯಸ್ಯ ಆದೇಶ ಸರ್ವಸ್ಮಾತ್ ಸರ್ವಸ್ಮಿನ್ ಆಮಿ ಸರ್ವನಾಮ್ನ ಸುಟ್ ಇತ್ಯನೇನ ಸುಡಾಗಮೆ ಸರ್ವೇಷಾಂ ಇತಿ ಪಂಚಸು ರೂಪೇಷು ಭೇದ ದೃಶ್ಯತೆ ಸರ್ವಶಬ್ದಸ್ಯ ರಾಮಶಬ್ದಸ್ಯ ಚ. ಸರ್ವಾದಿಗಣೇ ಪಂಚತ್ರಿಂಶತ್ ಶಬ್ದಾಃ ಸಂತಿ ತೇಷು ಅಕಾರಾಂತಾನಾಂ ಶಬ್ದಾನಾಂ ಯಥಾ ವಿಶ್ವಶಬ್ದಃ ಅಸ್ತಿ ತಸ್ಯ ಸರ್ವಾಣಿ ರೂಪಾಣಿ ಸರ್ವಶಬ್ದವದೇವ. ಸೊ ಆಲ್ ಫಾರ್ಮ್ಸ್ ಆಫ್ ವಿಶ್ವ ಆರ್ ಲೈಕ್ ಸರ್ವ. ತತಃ ಉಭ ಇತಿ ಅಕಾರಾಂತಃ ಕಃ ವಿಶೇಷಃ ಉಭಶಬ್ದಸ್ಯ, ವಾಟ್ ಇಸ್ ಸ್ಪೆಷಲ್ ಅಬೌಟ್ ಉಭಶಬ್ದ. ಎನಿಬಡಿ, ಉಭಶಬ್ದಸ್ಯ ಕಃ ವಿಶೇಷಃ? ನಿತ್ಯಂ ದ್ವಿವಚನಾಂತಃ ಉಭಶಬ್ದಃ. ಓಕೆ, ಸೊ ನಿತ್ಯ ದ್ವಿವಚನಾಂತತ್ವಾತ್ ವೆದರ್ ವಿ ಸೇ ಇಟ್ ಇಸ್ ಲೈಕ್ ರಾಮ ಆರ್ ಲೈಕ್ ಸರ್ವ ಇಟ್ ಮೇಕ್ಸ್ ನೋ ಡಿಫರೆನ್ಸ್. ಯತೋ ಹಿ ದ್ವಿವಚನೆ ಸರ್ವಶಬ್ದಸ್ಯ ರಾಮಶಬ್ದಸ್ಯ ಚ ಕೋಪಿ ವಿಶೇಷಃ ನಾಸ್ತಿ, ಕೇವಲಂ ಉಭೌ ಉಭೌ ಉಭಾಭ್ಯಾಂ 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 ಉಭಯೋಃ ಉಭಯೋಃ ಇತಿ ರೂಪಾಣಿ. ತತಃ ಉಭಯ ಶಬ್ದಸ್ಯ ಕಃ ವಿಶೇಷಃ? ಉಭಯಶಬ್ದಸ್ಯ ದ್ವಿವಚನಂ ನಾಸ್ತಿ ಇತಿ ಕೈಯಟಃ, ಕೈಯಟಮತಮೇವ ಸ್ವೀಕ್ರಿಯತೆ ಅಸ್ಮಾಭಿರಪಿ. ಅತಃ ಉಭಯಶಬ್ದಸ್ಯ ದ್ವಿವಚನಂ ನಾಸ್ತಿ ಇತಿ ಕೈಯಟಃ, ತಸ್ಮಾತ್ ಏಕವಚನಂ ಬಹುವಚನಂ ತತ್ರಾಪಿ ಸರ್ವಶಬ್ದವದ್ ರೂಪಾಣಿ ಉಭಯಶಬ್ದಸ್ಯ. ಡತರ ಡತರ ಇತಿ ಪ್ರತ್ಯಯಃ ತತ್ ಪ್ರತ್ಯಯಾಂತಸ್ಯ ಯಥಾ ಕತರ ಶಬ್ದಸ್ಯ ಡತಮ. ಸೊ ದಿಸ್ ಶುಡ್ ಬಿ ಕತಮ ಆಕ್ಚುಲಿ ದ ಒನ್ ಇನ್ ಬ್ರಾಕೆಟ್ಸ್ ಡತಮ ಇತ್ಯಪಿ ಪ್ರತ್ಯಯ ಅನ್ಯ ಅನ್ಯತರ ಇತರ ತ್ವ ಇತಿ ಸರ್ವೇಪಿ ಅದಂತಾಹ ಸರ್ವನಾಮ ಶಬ್ದಾಹ ಸರ್ವೇಷಾಂ ಸರ್ವಶಬ್ದವದ್ ರೂಪಾಣಿ. ಆಲ್ ದೀಸ್ ಆರ್ ಲೈಕ್ ಎಕ್ಸಾಕ್ಟ್ಲಿ ಲೈಕ್ ಸರ್ವಶಬ್ದ ವಿತ್ ಇನ್ ಪುಲ್ಲಿಂಗ ವಿತ್ ಅಬ್ಸಲ್ಯೂಟ್ಲಿ ನೋ ಡಿಫರೆನ್ಸ್. ತತಃ ನೇಮಶಬ್ದ. ಸೊ ವಾಟ್ ಆರ್ ದ ಫಾರ್ಮ್ಸ್ ಆಫ್ ನೇಮ ಲೈಕ್ ವಾಟ್ ಡಸ್ ನೇಮ ಮೀನ್, ನೇಮಶಬ್ದಸ್ಯ ಕಃ ಅರ್ಥಃ ಪ್ರಕ್ರಿಯಾಯಾಂ ಕಃ ವಿಶೇಷಃ? ನೇಮಶಬ್ದಸ್ಯ ಅರ್ಧ ಇತ್ಯರ್ಥಃ ನೇಮ ಇತ್ಯರ್ಧೇ ಇತ್ಯುಕ್ತಂ ದೀಕ್ಷಿತೈಃ. ಅರ್ಧಃ ನೇಮ ಮೀನ್ಸ್ ಹಾಫ್. ಸೊ ವಾಟ್ ಇಸ್ ದ ವಿಶೇಷ ಇನ್ ಪ್ರಕ್ರಿಯಾ ಆಫ್ ನೇಮಶಬ್ದ? sorry, Hiralalji. Hello. Okay. Anybody? Nema Shabdasya Prakriyayam Kaha Visheshaha. Is it exactly like Sarva Shabda or is there a difference? Purva Paravara no. Dakshinottara Paradharani Tatra Nasti Tadrashameva Sutram Prathama Charama Tayalpa Ardha Katipaya Nemascha. इति सूत्रमस्ति जसि विभाषा विभाषा जसि इत्युक्त्वा जस् प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति प्रथमा चरमा तया अल्पा अर्धा कतिपय नेम तस्मात् नेमशब्दस्य सर्वनामगणे सर्वादिगणे पठितत्वात् नित्यं सर्वनामसंज्ञा वर्तते जसि परतः तु विभाषा अर्थात् नेमे इत्येकं रूपं नेमाः इत्यपरं रूपम् अन्यानि सर्वाणि रूपाणि सर्वशब्दवत् भवन्ति. So it has everything like Sarva, except in just there are two forms, one like Sarva and the other like Rama. Okay. Sama, Sima, Ubhay, Ubhavapi Shabdo, Sarva Shabdavat. Again like Akaranta, Sarvanama, with no difference. Purva, Purva Shabdasya Kaha Visheshaha. What are the specialities in the Prakriya of Purva? जसि विकल्पः पूर्वपरावर दक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञाय वस्तुतः व्यवस्थायाम् एव तस्य सर्वनामसंज्ञा अपि भवति. इट् गेट्स् सर्वनामसंज्ञा ओन्ली इन् द मीनिङ्ग् आफ् व्यवस्था आल्सो इन् आल् अदर् फार्म्स् इट् इस् नित्यसर्वनामसंज्ञा ओन्ली इन् जस् विभाषया सर्वनामसंज्ञा भवति पूर्वे पूर्वाः इति रूपद्वयम्. इस् देर् एनी अदर् change? Any other speciality for Purva Shabda? Any other sutra which would apply?
Asanyaya, which should not be asanya.
Correct. Vyavasthayam asamyayam ityuktatvat. It should not be a samya and it should be only in vyavastha. So in such a case we get vaikalpika saranama samya in jas. Okay. Is there any vishesha in any other pratyaya? Or is it exactly like sarva shabda? Is there a difference from any other, in any other prakriya? Anyatra kutrapi visheshaha bhavativa prakriyayam. पञ्चमी विभक्तौ रूपद्वयं पूर्वस्मात् पूर्वात्. इस् इट् ओन्ली इन् पञ्चमी? पूर्व इस् नाट् लैक् राम. इट् इस् लैक् सर्वशब्द बट् इन् जस्ट् देर् आर् टू फार्म्स् पूर्वे पूर्वाः. इन् पञ्चमी देर् आर् टू फार्म्स् पूर्वस्मात् पूर्वात् एण्ड् आल्सो इन् सप्तमी पूर्वे पूर्वस्मिन्. सूत्रं किम्? What is the sutra which would apply to give give two forms in Panchami and Saptami? Purvadibhyo navabhyo va. Satyam. Purvadibhyaha navabhyaha va. Nasinyohu smatsminau vikalpena bhavataha. Iti sutra arthaha. Purva paravara dakshinottara paradharani. Yetesham saptanam vyavasthayam asamnyayam. Iti sutrena. जसि विकल्पेन सर्वनामसंज्ञा तथैव पूर्वादिभ्यो नवभ्यो वा इति सूत्रेण स्मात्स्मिन् इति आदेशौ विकल्प्येते. तस्मात् रूपत्रये भेदः अस्ति. पूर्वे पूर्वाः पूर्वस्मात् पूर्वात् पूर्वस्मिन् पूर्वे अन्येषु सर्वेषु सर्वशब्दवद् रूपाणि शेषं सर्ववत् सिमिलर्ली स्वशब्दः किं भवति स्वशब्दस्य इट् इस् द सेम् बट् द सूत्र इस् डिफरेण्ट् सारी दिस् इस् नाट् द सूत्र मै मिस्टेक् वाट् इस् द सूत्र फार् स्वशब्द स्वशब्दस्य जसि विकल्पेन सर्वनामसंज्ञा भवति केन सूत्रेण स्वमज्ञाति धनाख्यायाम् इति सूत्रेण बन्धुधन इति उभयार्थभिन्नस्य स्वशब्दस्य जसि विकल्पेन सर्वनामसंज्ञा भवति स्वमज्ञाति धनाख्यायाम् ओके अन्तरशब्दस्य केन सूत्रेण जसि विभाषा फार् अन्तरशब्द What is the sutra which gives vikalpa in jas? Antara shabdasya kena sutrena jasi vikalpa bhavati. Antaram bahiryokopa samyanayohu. Iti sutram. Including these two, it makes 9. Purvadibhyo navabhyova. Tena purva para avara dakshina uttara apara adhara. Iti saptanam. Tathaiva swashabdasya antara shabdasya cha. Netesham navanam shabdanam. Sorry. Netesham navanam api shabdanam. Smatsmin adeshaha vikalpyate. So all of these are like sarvashabda except in three cases. In jas, in ngasi and in ni, there is a difference in forms. There are two forms. Okay. Evam antara shabdasya api. Okay. Eka shabdaha kaha visheshaha. Eka is also in sarvadigana. You should notice that he has dealt with all padas in the sarvadigana which are akarantas. Okay, akaranta, pullinga, sarve shabdaha uchyante. Eka shabdasya kaha visheshaha. Very obvious. एकवचनमेव एकशब्दः सङ्ख्यार्थे नित्यम् एकवचनान्तः अन्येषु अर्थेषु वचनत्वमपि भवति सो दट् एकशब्दस्य बहवः अर्थाः सन्ति एकोन्यार्थे प्रधाने च प्रथमे केवले तथा इत्यादिना बहवः अर्थाः सन्ति यत्र सङ्ख्यावाचकत्वमस्ति एकशब्दस्य तत्र नित्यम् एकवचनान्तः अन्येषु अर्थेषु वचनत्रयमपि भवति सो दिस् इस् अबौट् सर्वनामशब्दस् अन्य रूपाणि तु सर्वदा सर्वशब्दवदेव भवन्ति प्रथमशब्दः कः विशेषः प्रथमशब्दस्य आल्रेडी सॉ द सूत्र
Sometimes we see ityeke. Does it mean a plural in that sense that it's not a sankhya shabda?
Exactly. There it does not mean one. It means else, other people. Ityeke or a few people. So only if it means one, the number one, then only it is ekavachananta. Otherwise it has bahuvachana. That is why ityeke always means So say a few, or so say others. Huh. अगेन् जसि विभाषा प्रथम चरम तया अल्प अर्ध कतिपय इत्येतेषां जसि विकल्पेन सर्वनामसंज्ञा भवति प्रथमे प्रथमाः पूर्व चरमे चरमाः इत्यादि शेषं तु रामवत् सो यू शुड् नोटिस् दट् दिस् इस् द डिफ़रेन्स् बिट्वीन् पूर्व एण्ड् प्रथम फार् पूर्वशब्द आल् रूपास् आर् लैक् सर्वशब्द ओन्ली इन् जसि इन् जस् देर् आर् टु फार्म्स् एस् फार् दीस् सिक्स् प्रथम चरम एट्सेट्रा दे डु नाट् हेव् अ सर्वनामसंज्ञा ओन्ली इन् जस् इट्स् एन् आप्शनल् सर्वनामसंज्ञा देर् फोर् देर् आर् टु फार्म्स् इन् आल् अदर् प्रत्ययास् द रूपास् आर् लैक् रामशब्द प्रथमः प्रथमौ प्रथमे प्रथमाः बट् इन् पञ्चमी नो इट् वुड् बी से प्रथमात् प्रथमाय एट्सेट्रा अग्रे तु द्वितीयशब्दः अस्ति द्वितीयशब्दस्य कः विशेषः तीयप्रत्ययान्तानां शब्दानां तीयस्य ङित्सु उपसङ्ख्यानम् इति वार्तिकेन ङित्सु प्रत्ययेषु परेषु अर्थात् ङे ङसि ङि इत्येतेषु प्रत्ययेषु परेषु विकल्पेन सर्वनामसंज्ञा भवति तेन किं भवति द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयात् द्वितीयस्मिन् द्वितीये इति रूपद्वयं भवति अन्यानि सर्वाणि रूपाणि रामशब्दवत् भवन्ति आल् अदर् फार्म्स् आर् लैक् राम इन् त्री केसेस् there is they get an optional sarvanama samya so that ends the sarvanama samya prakarana those are all what are the specialities for sarvanamas coming back to other akaraanta pullingas all of them have one form like rama and there is a speciality nirjara shabdah kim sutram kim bhavati Suji, I am not able to unmute you. I don't know why. Because it says it's already unmuted, but I can't unmute you. I don't know why. Jaraya jarasanyatarasyam iti sutrena ajadishu pratyayeshu pareshu विकल्पेन जरस् आदेशः भवति जरायाः जरस् अन्यतरस्यां तदा रूपद्वयं यथा निर्जरः निर्जरसौ निर्जरौ निर्जरसः निर्जराः इत्यादिना रूपद्वयं भवति सो इन् आल् अजादिविभक्तीस् द निर्जरशब्द हस् टू फार्म्स् वन् फार्म् लैक् रामशब्द एण्ड् वन् फार्म् वित् सकार लैक् सकारान्त पक्षे हलादौ च यदा आदेशः न भवति अथवा हलादिषु विभक्तिषु परेषु रामशब्दवद् रूपाणि Okay. Next Pada. Next we go to the Sutra which is, everybody knows I hope, Paddan Nomas. Whatever the Adeshas. Shasadav Vibhaktav. Shas Ityarabhya. Pada Shabdasya Sthane. Pad Iti Adeshah Bhavati. Paddan Nomas Iti Sutra. No? Pakshe Swadipanchake. So when there is no Adesha or in the first five, the Rupas are like Rama Shabda. From shas, there are two forms. One with padaha, padan, pada, padena. Same is the case with danta. Yatra data, datu iti adeshaha bhavati. Pakshikam, rama shabdavad drupam. Masa shabde, mas iti adeshaha. Adeshe krute, bhyamadishu pareshu, yattvam, bhobhago, bho apurvasya yoshi. Ruttvam bhavati, tasya yattvam bhavati. Mas, bhyam, iti sthite, ruttvam, tasya yattvam. यस्य हलि सर्वेषामिति लोपे माभ्यां माभिः इत्यादि रूपाणि सुपि सप्तमी बहुवचने परे ऋत्वं विसर्गः सकारादेशः मास्सु माहसु मासेषु इति रूपत्रयम् अन्यानि रूपाणि रामशब्दवद् भवन्त्येव यूष शब्दस्य पद्धन्नोमास् इत्यनेन यूषन् इति नकारान्तः आदेशः क्रियते भसंज्ञायां सत्याम् अल्लोपो नः इति नकारस्य लोपः विशेषः यूषन् अस् इति स्थिते अल्लोपेणत्वे यूष्णः यूष्णा इत्यादि रूपाणि सप्तमी एकवचने तु विकल्पेन अल्लोपः यूषणि यूष्णि इति रूपं पदसंज्ञायां सत्यां किं भवति ऐ हेव् नाट् पुट् इट् आन् द स्लैड् वेन् देर् इस् भसंज्ञा भसंज्ञा इस् गिवन् बै यचिभम् इफ् द प्रत्यया इस् यकारादि आर् अजादि इट् गेट्स् भसंज्ञा वेन् देर् इस् भसंज्ञा देर् इस् अल्लोपो नः द अकारा इस् डिलीटेड् वाट् हेपन्स् वेन् देर् इस् पदसंज्ञा बै स्वादिशो सर्वनामस्थाने इफ् द प्रत्यया इस् हलादि द प्रकृति गेट्स् द संज्ञा काल्ड् पद सो नौ यूषन् भ्याम् इति स्थिते किं भवति नलोपः प्रातिपदिकान्तस्य इत्यनेन नकारलोपे यूषभ्यां यूष्णा यूषभ्यां यूषभिः यूष्णे यूषभ्यां यूषभ्यः रूपाणि यु शुड् रिमेम्बर् दट् दिस् प्रक्रिया इस् द सेम् लैक् इट् वुड् बि फार् अ नकारान्त लैक् वि हाव् राज्ञा राजभ्यां राजभिः इस् लैक् नकारान्त हे द स्पेशालिटि इस् जस्ट् दट् आदेश इस् नकारान्त एण्ड् नाट् द ओरिजिनल् शब्द ओके पक्षे रामशब्दवद् रूपाणि द्व्यह्नशब्दः मधु अद्यैव अधीतः कः विशेषः वाट् हेपन्स् वित् द्व्यह्न द्व्यह्न व्यह्न और् सायाह्न सङ्ख्या विसायपूर्वस्याह्नस्याहन् अन्यतरस्यां नौ इति सूत्रेण निप्रत्यये परे विकल्पेन अहन् इति आदेशः भवति आदेशे कृते विभाषाङिष्योः इत्यनेन अल्लोपे विकल्पेन अल्लोपः त्रीणि रूपाणि द्व्यह्नि द्व्यहनि द्व्यह्ने और् सायाह्नि सायाहनि सायाह्नि दट् इस् आल् वि स्टडीड् एक्चुलि इन् अजन्तपुल्लिङ्ग देर् आर् अकारान्तपुल्लिङ्ग देर् इस् वन् Sarvanama Samya Prakarana, which is a big thing. If we take that out, there is actually nothing. There is only the Adesha. We have Nirjara and we have the Pada, Danta, Masa, Yusha, four Shabdas from that Sutra. And Dvyanha, Vyanha, Sayanna, three Sutras are all that's there. Jaraya, Jarasanya, Tarasyam, Paddanomas, iti Sutram, Sankhya, Visaya, Purvasya, iti Sutram. Other than this, everything goes like Rama Shabda. ओन्ली इन् द सर्वनामसंज्ञाप्रकरणे कानिचन सूत्राणि सन्ति तावदेव कोऽपि सन्देहः अस्ति चेत् पृच्छताम् एनी डौट्स् फ्रम् एनिवेर् अरौण्ड् इन् अजन्तपुल्लिङ्ग आर् इवन् एल्स्वेर् Vasuji, I still can't unmute you. I do not know what's the problem. Maybe you can type your question. Anybody else with any doubts? यूषन् शब्दस्य विषये यूषन् यूष इति शब्दः तस्य शशादिषु प्रत्ययेषु परेषु यूषन् इति आदेशः क्रियते नकारान्तः आदेशः आदेशे कृते नकारान्तस्य शब्दस्य कार्यद्वयम् अस्ति देर् आर् टु थिङ्ग्स् विच् कुड् हेपन् टु अ नकारान्तशब्द एक्चुलि त्री थिङ्ग्स् वन् विच् वुड् हेपन् इन् For any Nakaranta Shabda, generally the structure is there are three things which are happening. One thing which happens in Sarvanamasthana, that is the first five Pratyayas. One thing, something which would happen when it is followed by Ajadi Pratyaya and one thing which would happen when it is followed by a Haladi Pratyaya. For Yusha, in the first five forms there is no Nakaranta because the Adesha is not there. It is like a Nakaranta Shabda. Yushaha, Yushav, Yushaha, Yusham, Yushav iti. शसादौ परतः विकल्पेन युषन् आदेशः क्रियते. आदेशे कृते द्वेधा गतिः भवति. यदि अजादिः विभक्तिः यथा अस् ए अस् इत्यादिना तथा शस् प्रत्ययः ङ्येङ् असीङि इत्यादिषु प्रत्ययेषु परेषु यचिभम् इति सूत्रेण भसंज्ञा भवति. यकारादिषु अजादिषु कप्रत्ययावधिषु स्वादिषु पूर्वं भसंज्ञं स्यात्. भसंज्ञायां सत्याम् अल्लोपो नः इत्यनेन अकारस्य लोपः भवति. यूषन् इति यः अन् इति श्रूयते तस्य अकारस्य लोपः यूष् न् इति भवति. यूष् न् इति स्थिते ऋषाभ्यां नूनसमानपदे इत्यनेन णत्वं भवति. यूष्ण यूष्णः यूष्णा यूष्णे यूष्णोः यूष्णि इत्यादि रूपाणि. सेम् थिङ्ग् यदि हलादिप्रत्ययः परतः अस्ति यथाभ्यां वा भिस्व अस्ति तदा तु अल्लोपः न भवति किन्तु नलोपः प्रातिपदिकान्तस्य प्रातिपदिकसंज्ञकं यत् पदं पदसंज्ञायां सत्यां तस्य नकारस्य लोपः भवति. तदा यूषन् भ्याम् इति स्थिते यूषभ्यां यूषभिः यूषभ्यः इत्यादीनि रूपाणि भवन्ति. सो वि ईदर् डिलीट् द अकार आर् नकार. इफ् द फालोयिङ्ग् प्रत्यय इस् अजादि वि डिलीट् द अकार. इफ् द प्रत्यय इस् हलादि वि डिलीट् द नकार. दट् इस् आल्. Any other questions? Vasuji, I do not know why the issue is the thing with the mute or the unmute. Ravi?
Samyak, so I don't know either. He can probably log out and log back in.
Okay, so we'll see next class. Hopefully it will be alright. Anyway, this class is almost over. Any other questions? No. Okay, so let's close the class here. Enakshara samapnaya madhigamya maheshwaram kutnam vyakaranam proktam tasmai paninaye namaha munitrayam namaskritya tarukti paribhag vyakarana siddhanta kaumudiyam virachyate. Okay, so the next class, as I said, there is no class for the next 2 weeks or 2.5 weeks. Actually, I am getting married and the wedding is on 31st January. I do not know how many of you are in Bangalore or even close by, but if there is anybody, please do come for the wedding. I'd be really glad to have you and also know you by face. But others, yeah, so that is why I'm taking a break for about 15 days. The next class would be on February 11th, right? Ravi, that's a Friday. Yes.
Yeah, I changed the webinar dates too. So.
Yeah, so it's from February 11th in next class. Oh, thanks all for your wishes, and wishes are the best gift actually. So that is what I really look forward to. Well, the boy, he is from Chennai, and he is also a he has a PhD in Sanskrit. He is also working for Sanskrit. He works in a yoga foundation in Chennai for the research wing of a yoga foundation. And yeah, I would be moving to Chennai also. I stay in Bangalore now. Would be. So, I will send my address. Yeah, I mean, I will probably send you all the invite. So you'll get the address if you want. Welcome to Chennai. Thank you. So, Sadago Panji is staying in Chennai. Great. Okay. So, thanks all of you for the support. And let's see. Anyway, we'll have the classes again. So, no problem with this class. Okay, so we'll have next class on
in February.